ईश्वरं स्वतन्त्रम् उमापतिं तं विजयं नमामि नमामि विघ्नेश्वर नन्दिनाथं पुत्रप्रियं तं शिरसा नमामि
नमामि देवं वरदुःखशोक विनाशनं चन्द्रधरं नमामि नमामि गङ्गाधरमीशमीरं मादरं देगवरं नमामि
नमामि कल्याणमचिन्त्यरूपं नमामि विश्वोद्धवीजरूपं नमामि विश्वस्थितिकारणं त नमामि संहारकरं नमामि नमामि।